ऋतुर्जनित्रेतस्या अपस्परिभक्षो जात आविशद्या स्वबर्धते तदा अहना अभवत् पिप्पिषेपजोंसाः पेजोषम् प्रथमन्तदुःख्यम् सध्रीमाजन्ति परिबिभ्रतेः पजो विश्वप्स्न्या जप्रभरन्त भोजनम् समानो अध्वा प्रवता मनुष्य तेजस्ताघृणाः प्रथमम् सास्युख्याः अन्वेको वदति यद्ददाति तद्रूपामिनम् ददपा एक ईजते विश्वा एकस्य विनुदस्ति दीक्षतेजस्ताघृणाः प्रथमम् सास्युख्याः प्रजाभ्यः पुष्टिम् विभजन्त आसते रजिमिव पृष्ठम् प्रभवन्तमाजते असिन्वन्दम् श्रैः पितुरत्तिभोजनम् यस्ताघृणाः प्रथमम् सास्युख्याः अधा कृणाः पृथिवीम् सन्दृशे दिवे जोधौ तेनामहि हन्नारिणक्पथः तन्वास्तोमेभिरुदभिर्नपादिनम् देवम् देवा अजनम् सास्युख्याः यो भोजनम् च दजसे च वर्धनमार्द्रादाशुष्कम् मधुमद्दुदोहितः सशे वधिन्निदधिषे विवस्वति विश्वस्यैक ईशिषे सास्युख्याः यः पुष्पिणेश्च प्रस्वश्च धर्मणाधिदानेव्या अवनीरधारजः यश्चासमा अजनो निद्युतो दिव उरुरोर्वाम् अभितः सास्युख्याः यो नार्मरम् सहवसुम् निहन्तवे वृक्षाय च दासवेषाय च वहः ऊर्जयन्त्या अपरिविष्टमास्य मुतैवाद्यपुरकृत्सास्युख्याः शतम् वाजस्य दश साकमाद्य एकस्य सृष्टौ यद्धचोदमाविथ अरज्योदस्योऽन्समुनब्दभीतये सुप्राव्यो अभवस्सास्युख्याः विश्वेदनुरोधना अस्य पौंस्यम् ददुरस्मै दधिरे कृत्नवेधनम् षडस्तभ्राभिष्टिरः पञ्च सन्दृशः परिपरो अभवस्सास्युख्याः सुप्रवाचनम् तव वीरवीर्या अञ्जदेके न क्रतुना बिन्दसे वसो जातोष्ठिरस्य प्रवजः सहस्वतो जाचकर्थसेन्द्रविश्वास्युख्याः अरमजः सरपसस्तराजकम् दुर्वीतजे च वैयाज च श्रुतिम् नीचासन्तमुदनजः परावृजम् ब्रान्धम् श्रोडम् श्रवयन् सास्युख्याः अस्मभ्यम् तद्वसो दानाजराधः समर्थजस्व बहुते वसव्यम् इन्द्रजच्चित्रम् श्रवस्या अनुद्योन् बृहद्वदेम विदधे सुवीराः